इमावत्त्वा पुरतमस्य कारो रहव्यम् वीरहव्याहवन्ते धियोरज्येष्ठा भजरम् नवीयोरयर्विभूतिरीयदेव च स्या तमोऽश्रुरयिन्द्रम् यो विदानो गिर्वाहसङ्गेभिर्यज्ञवृद्धम् यदिवमतिमह्नापृथिव्याः पूर्वमायस्य ऋचमहि त्वम् सयितमो वजुनन्ददन्वत्सूर्येण वजुनवच्चकार कदा देवर्ता अमृतस्य धामे यक्षन्तो न मीनन्ति स्वधावः यस्ता चकारसगुहस्विन्द्रः कमाजनम् चरति कासु भिक्षु कस्ते यज्ञो मनसे संवरायको अर्कयन्द्रकथमस्वहोता इदाहिते वीरतः पुराजा प्रत्नास आसु पूर्वकृत्सखायः ये मध्यमाच उतनूतनास उतापमस्य पुरुहूतबोधि तम् पृच्छन्तो बरासः पराणि प्रत्नाद इन्द्रश्रुत्यानु ये मुः अर्चामसि वीरब्रह्मवाहोजा देव विद्मता त्वा महान्तम् अभित्वापाजो रक्षसो विदस्थे महीयज्ञानमभिदत्सु तिष्ठ तव प्रत्रेण युज्येन सख्या वज्रेण दृष्टो अपदानूदस्व सदस्रोधेन्द्रनूतनस्य ब्रह्मण्यतो वीरकारुधाय त्वम् आभिप्यतिवीन्द्रेणाम् सस्वभूत सुखभयेष्टौ रोदयेव नूनम् मित्रमिन्द्रम् मरुतः कृष्णावादेनो अद्य प्रभूषणम् विष्णोमग्निम् पुरम् धिंसवितारमोषधीः पर्वतांश्च यमवुत्त्वा पुरुसागप्रयज्यो जरितारो अभ्यर्थ्यम् चर्कैः श्रुधीरमाहूभतो भूभानो न त्वावान्यो आवृतत्वदस्ति नो महावाचमुपायाहि विद्वान् विश्वेभिः सूनो सहसो यजत्रैः ये अग्निजिह्वारे दशाप आसुर्ये मनुम् चक्रुरुपरन्दसाय स नो बोधिपुरजेता सुखेषु त दुर्गेषु पथिकृद्विदानः ये अश्रमास पुरभो बहिष्ठास्तेभिर्न इन्द्राभिवक्षिवाजम्